अथ चतुर्वेदोक्त आसीरवचनं देवदेवोत्तमदेवता सार्वभौमा अखिलांडकोटि ब्रह्मांडनायक ऋषिगणवंद्य सच्चिदानंदात्मन ऋग्वेद प्रिय ऋग्वेद सेवाम अवधारय।
मामामतेयो जुजुर्वान्दसमे युगे अपामर्थ्यैः यतीनां ब्रह्मा भवति सारथिः वादेवादेवतवादिनो दूरमेषु विप्रा अमृतारितज्ञाः अस्य मद्भक्तिवतमादयध्वन् तृप्तायातपतिभिर्ते भयानेः सविता पश्चात्तात् सविता पुरस्तात् सवितोत्तरात्तात् सविता
ततो विश्वं व्यक्रामत्ताशनानशने अभि तदस्य प्रियमभिपाथो अस्याम्